रत्नैः कल्पितमासनम् हिमजलैः स्नानम् च दिव्याम्बरम् नानारत्नविभूषितम् मृगमदामोदाङ्गितम् चन्दनम् जातीचम्पकबिल्वपत्ररचितम् पुष्पम् च धूपम् तथा दीपम् देवदयानिदे पशुपते हृत्कल्पितम् गृह्यताम् सौवर्णेन वरत् कण्ठरचिते पात्रे घृतम् पायसम् भक्ष्यम् पञ्चविधम् पयोधतियुतम् रम्भापलम् पानकम् शाकानामयुतम् जलम् रुचिकरम् कर्पूरकण्टोज्ज्वलम् ताम्बूलम् मनसा मया विरचितम् भक्त्या प्रभो स्वीकुरु छत्रम् चामरयोर्युगम् व्यजनकम् चादर्शकम् निर्मलम् वीणाभेरि मृदङ्गकाहलकला गीतम् च नृत्यम् तथा साष्टाङ्कम् प्रणति स्तुतिर्बहुविध ह्येतत् समस्तम् मया सङ्कल्पेन समर्पितम् तव विभो पूजाम् गृहाण प्रभो आत्मा त्वम् गिरिजामतिः सहचर प्राणाशरीरम् गृहम् पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पदयोर्प्रदक्षिणविति स्तोत्राणि सर्वा गिरो यद्यत् कर्म करोमि तत् तदगितम् शम्भो तवाराधनम् करचरणकृतम् वा कायजम् कर्मजम् वा श्रवणनयनजम् वा मानसम् वापराधम् विहितमविहितम् वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॐ इति श्री शिवमानस पूजा स्तोत्रम् सम्पूर्णम्।